ಜ್ಯೋತಿಂಷಿ ಗ್ರಹ ನಕ್ಷತ್ರಾಣಿ ತಾನೆ ಅಧಿಕೃತ್ಯ ಪ್ರವೃತ್ತಂ ಶಾಸ್ತ್ರಂ ಜ್ಯೋತಿಷಾಸ್ತ್ರಂ ಏತತ್ ಶಾಸ್ತ್ರಂ ವೇದಸ್ಯ ಸಡಂಗೇಷು ಅನ್ಯತರಂ ವಿದ್ಯತೆ ವೇದಾಸ್ತಾವತ್ ಯಜ್ಞಕರ್ಮ ಪ್ರವೃತ್ತಾಃ ಯಜ್ಞಾಃ ಪ್ರೋಕ್ತಾಸ್ತೇತು ಕಾಲಾಶ್ರಯೇಣ ಶಾಸ್ತ್ರಾದಸ್ಮಾತ್ ಕಾಲಬೋಧೋ ಯತಸ್ಯಾತ್ ವೇದಾಂಗತ್ವಂ ಜ್ಯೋತಿಷಸ್ಯೋಕ್ತಮಸ್ಮಾತ್ ಇತಿ ಭಾಸ್ಕರಾಚಾರ್ಯಾಃ ಸಿದ್ಧಾಂತಶಿರೋಮಣೌ ವೇದವಿಹಿತಾನಾಂ ಯಜ್ಞಾದಿ ಕ್ರಿಯಾಕಲಾಪಾನಾಂ ನಿರ್ವಹಣಾರ್ಥಂ ಸಮುಚಿತಂ ಕಾರ್ಯಂ ಬೋಧಯತೀತಿ ಅಸ್ಯ ಶಾಸ್ತ್ರಸ್ಯ ವೇದಾಂಗತ್ವಂ ಅಭಿಹಿತಂ ಇತಿ ಆಮನಂತಿ ಇದಂಚ ಶಾಸ್ತ್ರಂ ಕಾಲವಿಧಾಯಕ ಶಾಸ್ತ್ರಂ ಇತ್ಯವಿಧಿ ಇತ್ಯಪಿ ಅಭಿಧೀಯತೆ ಯತೋ ಹಿ ಶಾಸ್ತ್ರೇಸ್ಮಿನ್ ತ್ರುಟಿ ಮುಹೂರ್ತ ಅಹೋರಾತ್ರ ಪಕ್ಷ ಮಾಸ ಇತ್ಯಾದೀನಾಂ ವಿಭಿನ್ನಾನಾಂ ಕಾಲಪರಿಮಾಣಾನಾಂ ತತ್ರ ಪರಿಷ್ಕಾರ ಅತ್ರ ಉಚ್ಯತೆ ಏತತ್ ಶಾಸ್ತ್ರಂ ಕಿಮರ್ಥಂ ಪ್ರವೃತ್ತಂ ಯಸ್ಯ ಕಸ್ಯಾಪಿ ಶಾಸ್ತ್ರಸ್ಯ ಆರಂಭಸ್ಯ ಕಿಮಪಿ ಕಾರಣಂ ಅವಶ್ಯಂ ಭವಿತುಮರ್ಹತಿ ದಿಗ್ದೇಶಕಾಲಾನಾಂ ಜ್ಞಾನಾರ್ಥಮೇವ ಏತತ್ ಶಾಸ್ತ್ರಂ ಪ್ರವೃತ್ತಂ ಯತೋ ಹಿ ಭಾರತೀಯಾನಾಂ ಅಸ್ಮಾಕಂ ದೃಢೀಯಾನ್ ಅಯಂ ವಿಶ್ವಾಸಃ ಆಸೀತ್ ಯತ್ಕಿಮಪಿ ಕಾರ್ಯಜಾತಂ ವ್ಯಾವಹಾರಿಕಂ ವಾ ಧಾರ್ಮಿಕಂ ವಾ ಭವತು ಲೌಕಿಕಂ ವಾ ಅಲೌಕಿಕಂ ವಾ ಭವತು ದಿಗ್ದೇಶ ಕಾಲಾನುರೋಧೇನ ಅನುಷ್ಠಿತಂ ಸತ್ ಏವ ಅಭೀಪ್ಸಿತಂ ಫಲಂ ಪ್ರಯಚ್ಛತೀತಿ ಏತತ್ ದಿಗ್ದೇಶಕಾಲ ಏತೇಷಾಂ ದಿಗ್ದೇಶಕಾಲಾನಾಂ ಜ್ಞಾನಾರ್ಥಮೇವ ಏತತ್ ಶಾಸ್ತ್ರಂ ಪ್ರವೃತ್ತಂ ತರ್ಹಿ ಇಮೇ ದಿಗ್ದೇಶಕಾಲಾಃ ಕಥಂ ಅಸ್ಮಾಭಿರ್ ಜ್ಞಾತವ್ಯಾಃ ಪ್ರಾಚೀನಾನಾಂ ಜ್ಯೋತಿರ್ವಿದಾಂ ತತ್ರ ಮುನೀನಾಂ ಅಧ್ಯಯನೇನ ಇದಂ ಜ್ಞಾತಂ ಯತ್ ಆಕಾಶೇ ವಿದ್ಯಮಾನಾನಾಂ ಖಗೋಳಕಾಯಾನಾಂ ಸತತಂ ಅಧ್ಯಯನೇನ ಅಸ್ಮಾಭಿ ಏತಾನಿ ನಿಶ್ಚಿತುಮು ಏತಾನಿ ನಿಶ್ಚಿತುಮಃ ಇತಿ ತೈಹಿ ತತ್ರ ಕಶ್ಚನ ನಿರ್ಣಯಃ ಕೃತಃ ಏತದರ್ಥಂ ತೈಹಿ ಅನವರ್ತಂ ಖಗೋಳಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನಂ ಕೃತಂ ಸೂರ್ಯಸ್ಯ ಉದಯಃ ಅಸ್ತಮನಂ ಗ್ರಹನಕ್ಷತ್ರಾಣಾಂ ಉದಯಃ ಗಮನಂ ಏತಾನಿ ಸರ್ವಾಣ್ಯಪಿ ಕಮಪಿ ನಿಯಮಂ ಅವಲಂಬ್ಯ ಏವ ಪ್ರವರ್ತತೆ ಇತಿ ತೈಹಿ ಜ್ಞಾತಂ ತದರ್ಥಂ ಖಗೋಳಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನೇನ ಏತೇಷಾಂ ದಿಗ್ದೇಶಕಾಲಾನಾಂ ಜ್ಞಾನಂ ಅಸ್ಮಾಭಿಃ ಕರ್ತುಂ ಭಾರ್ಯತೆ ಇತಿ ತೈಹಿ ನಿಶ್ಚಿತಂ ಏವಂ ಜ್ಯೋತಿಷಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನಂ ಭಾರತದೇಶೆ ಪ್ರವೃತ್ತಂ ಯಥಾ ಮಯಾ ಪೂರ್ವಂ ಉಕ್ತಂ ದಿಗ್ದೇಶಕಾಲಾನುಕೂಲಂ ಕರ್ಮ ಏವ ಯಥಾರ್ಥಂ ಫಲಂ ಪ್ರಯಚ್ಛತಿ ಇತಿ ದಿಕ್ ದೇಶ ಕಾಲ ತರ್ಹಿ ದಿಗ್ಜ್ಞಾನಂ ಕಥಂ ವಾ ಕರ್ತುಂ ಶಕ್ಯತೆ ಸಾಮಾನ್ಯತಃ ಯತ್ರ ಉದಯತಿ ಸೂರ್ಯಃ ಸಾ ಪೂರ್ವಾದಿ ಯತ್ರ ಅಸ್ತಂ ಏತಿ ಸಾ ಪಶ್ಚಿಮ ಇತಿ ಅಸ್ಮಾಭಿಃ ಉಚ್ಯತೆ ಕಿಂತು ಸರ್ವಾದಾ ಸೂರ್ಯಃ ಸಮಪೂರ್ವ ದಿಶಿ ನ ಉದಯತಿ ನ ಸಮಪಶ್ಚಿಮ ದಿಶಿ ಅಸ್ತಂ ಏತಿ ಕದಾಚಿತ್ ಪರಾಂ ದಕ್ಷಿಣಾಂ ಕಾಷ್ಠಾಂ ಸಹ ಗಚ್ಚತಿ ಕದಾಚಿತ್ ಪರಾಂ ಉತ್ತರಾಂ ಕಾಷ್ಠಾಂ ಗಚ್ಚತಿ ಯಥಾ ಯಾ ತತ್ರ ಪೂರ್ವಾದಿಕ್ ಅಸ್ತಿ ತತಃ ಚತುರ್ವಿಂಶತಿ ಅಂಶ ಪರ್ಯಂತಂ ಪರಮಂ ಉತ್ತರಂ ಗಚ್ಚತಿ ಏವಮೇವ ಯಾ ಪೂರ್ವಾದಿಕ್ ಅಸ್ತಿ ತತಃ ಚತುರ್ವಿಂಶತಿ ಅಂಶಾನ್ ಯಾವತ್ ಪರಮಂ ದಕ್ಷಿಣಂಚ ಗಚ್ಚತಿ ತರ್ಹಿ ಏಕಸ್ಮಿನ್ ವರ್ಷೆ ದಿನದ್ವಯಮೇವ ಸಮಪೂರ್ವ ದಿಶಿ ಸೂರ್ಯ ಉದಯತಿ ತದ್ದಿನದ್ವಯಂ ಸಾಯನಮೇಷಾದಿ ಅನಂತರಂ ಸಾಯನ ತುಲಾದಿ ಇತ್ಯಭಿಧೀಯತೆ ತದ್ದಿನೇ ದಿನಮಾನಂ ರಾತ್ರಿಮಾನಂಚ ಸಮಾನಂ ಭವತಿ ತರ್ಹಿ ಅಸ್ಮಾಭಿಃ ದಿಗ್ಜ್ಞಾನಂ ಕಥಂ ಕರ್ತುಂ ಶಕ್ಯತೆ ಯತೋ ಹಿ ಅಸ್ಮಾಕಂ ಕರ್ಮವಿಶೇಷಾಃ ಯೇ ಸಂತಿ ತೇ ಕರ್ಮವಿಶೇಷಾಃ ದಿಕ್ ಅನುರೋಧೇನ ಕರ್ತವ್ಯಾಃ ಯಥಾ ದಿನದ್ವಯಮೇವ ಸೂರ್ಯಃ ಸಮಪೂರ್ವ ದಿಶಿ ಉದಯತಿ ಏಕಸ್ಮಿನ್ ಹಾಯನೆ ಇತಿ ಪೂರ್ವಮೇವ ಉಕ್ತಂ ತರ್ಹಿ ಇತರ ದಿನೇಷು ಕಾ ವಾರ್ತಾ ಏತದರ್ಥಮೇವ ಕಶ್ಚಿತ್ ಪ್ರಕಾರ ವಿದ್ಯತೆ ತಂ ಪ್ರಕಾರ ಆಶ್ರಿತ್ಯ ಅಸ್ಮಾಭಿಃ ಇದಾನಿಂ ಕಾ ಪೂರ್ವಾದಿಕ್ ಇತಿ ಜ್ಞಾತುಂ ಶಕ್ಯತೆ ತದರ್ಥಂ ಜ್ಯೋತಿಷಶಾಸ್ತ್ರೇ ಸಾಮಾನ್ಯ ಸುಲಭ ವಿಧಾನಾನಿ ಉಕ್ತಾನಿ ಸಂತಿ ಏಕಂ ಕಾಷ್ಠಂ ಪರ್ಯಾಪ್ತಂ ಭೂಮೌ ತತ್ರ ವೃತ್ತಂ ವಿಲಿಖ್ಯ ತತ್ ಕೇಂದ್ರೇ ಕಾಷ್ಠಂ ಏಕಂ ಸಂಸ್ಥಾಪ್ಯ ತಸ್ಯ ಛಾಯೆಯ ಅಸ್ಮಾಭಿಃ ತತ್ರ ದಿಗ್ಜ್ಞಾನಂ ಕರ್ತುಂ ಶಕ್ಯತೆ ಏತದರ್ಥಂ ಗಣಿತವಿಧಾನಂ ಅಸ್ತಿ ತತ್ರ ಜ್ಯೋತಿಷಶಾಸ್ತ್ರಸ್ಯ ಗ್ರಂಥೇಷು ತತ್ರ ಉಕ್ತಂ ವಿದ್ಯತೆ ಏವಂ ದಿಗ್ಜ್ಞಾನಂ ಭವತಿ ಅನಂತರಂ ದಿಕ್ ದೇಶ ಇತಿ ಉಕ್ತಂ ದೇಶಜ್ಞಾನಮಪಿ ಅಪೇಕ್ಷಿತಂ ಯತೋ ಹಿ ಅಸ್ಮಾಕಂ ಯದಾ ಧಾರ್ಮಿಕ ಕಾರ್ಯಾಣಿ ಅಸ್ಮಾಭಿಃ ಅನುಷ್ಠೀಯಂತೆ ತದಾ ಅಸ್ಮಾಭಿಃ ತತ್ರ ಏತಸ್ಮಿನ್ ದೇಶೆ ಏತಸ್ಮಿನ್ ಕಾಲೇ ಇತ್ಯಾದಿ ಅಸ್ಮಾಭಿಃ ಆಧಾರೇವ ಪ್ರತಿಜ್ಞಾ ಕ್ರಿಯತೆ ಕಸ್ಮಿನ್ ದೇಶೆ ವಯಂ ಭವಾಮಃ ಇತಿ ಏತತ್ ದೇಶಜ್ಞಾನಂ ಕಿಮರ್ಥಂ ಇತ್ಯುಕ್ತೆ ದೇಶಾನುರೋಧೇನ ಕಾಲೋಪಿ ಭಿದ್ಯತೆ ಯಥಾ भूमेः समभाजकवृत्ते ये जनाः वसन्ति तत्र दिनमानं रात्रिमानं च समानं भवति सर्वदा यथा यथा वयं भू समभाजकवृत्तात् उत्तरतः दक्षिणतः गच्छामः तथा तथा रात्रिमानं दिनमानं च व्यत्यस्तं भवति यतोहि दिनमानानुरोधेन प्रातः संगव मध्याह्न अपराह्न सायाह्न इत्यादि दिनस्य विभागाः सन्ति तेऽपि भिद्यन्ते एवं मुहूर्तापि भिद्यन्ते तदर्थं दिनमानम् अस्माभिः ज्ञातव्यम् एतद् दिनमानं ज्ञातव्यं चेत् अस्माकं देशः कुत्र अस्ति तदपि ज्ञातव्यं देशज्ञानार्थं ज्ञानार्थम् अक्षांशः अपेक्षते अक्षांशज्ञानेन देशज्ञानं भवति एते यथा तत्र भूमेः समभाजकवृत्ते ये देशाः भवन्ति तत्र अक्षांशाः शून्याः भवन्ति तर्हि अक्षांशज्ञानं कथं कर्तुं शक्यते ध्रुवोन्नतिरेव अक्षांशाः उत्तरध्रुवः अस्माकं क्षितिजात् यावदुन्नतः भवति ते अक्षांशाः यैः अंशैः उत्तरध्रुवनक्षत्रम् उन्नतं भवति तावन्तः अक्षांशाः भवन्ति तदस्माभिः सामान्यभेदेन तत्र कर्तुं शक्यते अस्माभिः तावत् तत्र काष्ठद्वयम् अस्माभिः तावत् कोणेन संस्थाप्य वेदः क्रियते चेत् उत्तरध्रुवस्य वेदः क्रियते चेत् अक्षांशज्ञानं कर्तुं शक्यते एवमेव अन्यथापि प्रकारः विद्यते अस्माकं तत्र सायनमेषादौ सायनतुलादौ च मध्याह्नकाले द्वादशाङ्गुलशङ्कोः छायां ज्ञात्वा तया छायया गणितविधानेन अक्षांशज्ञानं कर्तुं शक्यते अक्षांशाः ज्ञाताश्चेत् अनन्तरम् अस्माकं देशस्य ज्ञानं कर्तुं शक्यते एवम् अत्यन्तं सुलभ उपायैः देशज्ञानं कर्तुं शक्यते अनन्तरं कालज्ञानं वस्तुतस्तु कालः इत्युक्ते किं सामान्यतः उच्यते इण्टर्वल् बिट्वीन् टु इवेण्ट्स् इति कालः इति यतोहि कालः उभयोः घटनयोः अन्तराल एव समयः इति तर्हि समयस्य आरम्भः कदा अन्तः कदा इति वक्तुं न शक्यते कालः अनादिः अनन्तश्च यतोहि लोकानाम् अन्तकृत्कालः कालोऽन्यः कलनात्मकः सद्विधा स्थूलसूक्ष्मत्वात् मूर्तश्चामूर्त उच्यते एतादृशः कालः अनन्तः अनादिः इत्युक्तं तर्हि अस्माकं सौकर्यार्थं कानिचन तत्र प्रमाणानि अवलम्ब्य अस्माभिः कालस्य तत्र विभिन्नाः विभागाः क्रियन्ते ते के ते विभागाः उदाहरणार्थं मुहूर्तः प्राणः अहोरात्रं पक्षः अनन्तरं मासः वर्षम् अयनम् इत्यादि एवं विभागाः क्रियन्ते एतदर्थमपि खगोलशास्त्रमेव प्रमाणं तर्हि अस्माभिः तत्र कालस्य ज्योतिषशास्त्रे कालस्य अत्यन्तं सूक्ष्म अवयवः इत्युक्ते त्रुटिः अत्यन्तं महान् तत्र प्रमाणं महत्प्रमाणम् इत्युक्ते कल्पः एकस्मिन् कल्पे द्वात्रिंशदधिकचतुश्शतकोटिमितवर्षाणि भवन्ति आङ्ग्लभाषया वदामश्चेत् 432 करोड् वर्षाणि भवन्ति एकस्मिन् कल्पे तर्हि एतादृशं प्रमाणं महत्प्रमाणं कथम् उक्तं तत्र किं प्रमाणं विद्यते तदर्थमपि खगोलशास्त्रीयं प्रमाणं विद्यते एतत् कपोलकल्पितं किमपि प्रमाणं नास्ति तदर्थं कालक्षदेशयोगात् भूयो ग्रह मन्द शीघ्रपातानां कल्पेन यतो योगः स्फुटं ग्रहयुगं कल्पः इति ब्रह्मगुप्तः ब्रह्मस्फुटसिद्धान्ते कल्पस्य तत्र निर्वचनं कृतवान् उदाहरणार्थम् अश्विनीम् आरभ्य ग्रह नीच मन्द मन्दोच्च इत्यादयः प्रवृत्ताः गमनार्थं पुनः येन कालेन पुनः अश्विन्यादिं प्राप्नुवन्ति स काल एव कल्पः यतोहि विभिन्नगतिकाः इमे भवन्ति मन्दोच्चानां गतिः भिन्ना शीघ्रोच्चानां गतिः भिन्ना ग्रहाणां गतिः भिन्ना नीचानां गतिः भिन्ना भवति पातानां गतिः भिन्ना भवति एवं विभिन्नगतिकाः इमे एकस्मात् स्थानात् अश्विनीनक्षत्रात् आरभ्य गतिं तत्र गन्तुम् आरब्धाः पुनः सर्वेपि युगपत् एकस्मिन् स्थाने एव यदा आयान्ति तदर्थम् एतावान् कालः अपेक्षितः भवति तर्हि कल्पः इत्यस्य प्रमाणस्य अपि खगोलशास्त्रीयं प्रमाणं विद्यते एवं कल्पः इति महत् तत्र परिमाणकः कालः उक्तः त्रुटिः इति कश्चित् कालः विशेषः उक्तः अस्ति त्रुटिः सूच्याभिन्ने पद्मपत्रे त्रुटिरित्यभिधीयते। तत्र पद्मपत्रम् इत्युक्ते अत्यन्तं कोमलं भवति, तस्य भेदनार्थम् अपेक्षितः कालः त्रुटिः। सामान्यतः वर्तमानकाले एवं वदन्ति, तत्र सेकेण्ड् इति मितः कालः अस्ति, तस्य स्थूलतया द्वात्रिंशत्लक्षपरिमितः अंशमितः कालः भवति। एतादृशः सूक्ष्मकालः अपि तैः उक्तः अस्ति। तर्हि इदानीम् अस्माकं संशयः उदेति, तावान् सूक्ष्मकालः तैः किमर्थम् उक्तः इति। प्रयोजनं विना तवन्तोपि प्रवर्तते, तत्र प्रयोजनं विना कथम् एतादृशः कालः इत्युक्ते, तास्मिन्नपि काले इदानीम् अस्माभिः ज्योतिर्वर्षाणि एतावद्दूरं विद्यते इति अस्माभिः उच्यते, तस्मिन् काले तादृशः वेगः अपि तत्र अपेक्षितः आसीत्। यतोहि विज्ञानस्य विकासः तत्र षोडशशतमाने जातः इति अस्माभिः वक्तुं न शक्यते। षोडशशतमानपर्यन्तं मानवः अत्यन्तं मुग्धः आसीत्, सः युगपत्तेव सर्वविद्वानस्य आयुष्य विज्ञानस्य आयुष्का तत्र आविष्कारान् कृतवान्, युगवत् बुद्धिमान् जातः इति वक्तुं न शक्यते। यतोहि कालस्य गर्भे कालक्रमे तत्र विकासः जायते, नाशः जायते। कस्मिंश्चित् काले अवश्यं तत्र विज्ञानस्य विकासः प्राचीनकाले एव आसीदिति अस्माभिः स्पष्टं वक्तुं शक्यते। यतोहि वैदिकानि उदाहरणानि वयं स्वीकुर्मश्चेत्, बृहस्पतिः प्रथमं जायमानः तिष्ठन्नक्षत्रमपि संविबभूव इति वदति। तिष्ठन् निश्चनक्षत्रं पुष्यनक्षत्रम् अभिमुखीकृत्य गुरुः उदितः, बृहस् इत्युक्ते बृहस्पतिः उदितः, वैदिकं वाक्यं। तर्हि गुरोः उदयः तैः एवम् उक्तः अस्ति। वयं किञ्चित् अवलोकयामश्चेत् तत्र गुरुः, इदानीं तत्र जुपिटर् इति आङ्ग्लभाषया उच्यते, तत्र गुरुः इति अस्माभिः उच्यते प्राचीनकाले अस्माभिः। तत्र गुरुः, गुरुः गरीयान्, ग्रहेषु गुरुरेव गरीयान् इति तैः कथं ज्ञातं? प्राचीनकाले दूरदर्शकयन्त्राणि नासन् इति नाहं वदामि, तर्हि कथं तैः ज्ञातम्? इदानीमपि तत्र अस्माभिः केवलं नेत्राभ्याम् अवलोकयामश्चेत् तत्र गुरुः तावान् बृहदाकारेण बृहत् न दृश्यते, तर्हि कथं तैः गुरुरेव ग्रहेषु गरीयान् इति ज्ञातम्? एवं कुजः इत्युच्यते मङ्गलग्रहस्य, कुजः कोर्जातः कुजः इत्युक्ते भूमेः पुत्रः। तर्हि भूम्या सह कोऽपि सम्बन्धः अस्ति वा इति वयं चिन्तयामश्चेत्, तत्र भूमेः अक्षभ्रमणकालः अनन्तरं कुजस्य अक्षभ्रमणकालश्च स्वल्पान्तरेण समानः एव अस्ति इति इदानीन्तन अधुनातनविज्ञानेन ज्ञातं विद्यते। तत्र प्रायशः एतादृशं साम्यं ज्ञात्वैव कदाचित् तैः तथा नाम संस्थापितं वा वयं न जानीमः। इदानीं भूमौ यथा प्राकृतिकसन्निवेशः अस्ति, तत्र भूमौ यथा मृत्तिकाः पाषाणखण्डाः भवन्ति, तत्रैव भवितुम् अर्हन्ति इति विज्ञानिनः वदन्ति। इदानीं वदन्ति इति कारणात् अस्माभिः कश्चित् सम्बन्धः न उच्यते, किन्तु तथा तैः कुजः इत्युक्तं। तर्हि किमर्थं तथैरुक्तम्? अनेन शनैश्चरः, शनिः मन्दगतिकः अस्ति, यतोहि तस्य कक्षा भूकेन्द्रात् अत्यन्तं दूरे विद्यते इति शनैश्चरः इति। तर्हि तादृशविचारः अपि तैः ज्ञातः, तदनुरोधेन तैः नाम अपि स्थापितम्। एवम् एतादृशं ज्ञानं, सूक्ष्मं ज्ञानं प्राचीनकाले अस्माकं ज्योतिर्विद्भिः सम्पादितम् आसीत्। एतादृशज्योतिषशास्त्रस्य वेदाङ्गत्वम् अस्माकं शास्त्रे अभिधीयते। हा, एवं कालविधायकं शास्त्रम् इत्युक्तं। तत्र कालस्तु यथा उक्तं, तर्हि ग्रहाणां नक्षत्राणाञ्च गतिस्थितिम् अवलम्ब्य अस्माभिः निर्णीयते। तत्र केवलं सूक्ष्मरूपेण किञ्चित् अवलोकयं, तत्र मानानि सन्ति कालमानानि, तत्र सावनमानं, चान्द्रमानं, नाक्षत्रमानम्, एवं सौरमानं, गुरुमान गौरवमानं, पितृमानं, देवमानं, मनुमानं, ब्रह्ममानम् इति नवप्रमाणानि, नवमानानि सन्ति। तत्र चतुर्णां तत्र मानानां सौर सावन नाक्षत्र अनन्तरं चान्द्र, एतेषां तत्र मानवमानानि इति विशेषतया नाम उच्यते। गौरवं गुरु गुरोः गतिम् अनुसृत्य यत् मानमानीयते तद् गौरवं मानम्। अनन्तरं कल्पादि युगादीनां गणना येन क्रियते तत् सौरमानं मनुमानं, तद्विषये अहम् अधिकतया न वदामि। तत्र सौरमानं सूर्यस्य येन कालेन अश्विन्यादितः पुनरश्वनयादिं प्राप्नोति सूर्यः, तदेव सौरमानम् इत्युच्यते, सौरं वर्षम् इत्युच्यते। तस्य द्वादश खण्डाः क्रियन्ते चेत् तत्र द्वादश मासाः एवं चन्द्रस्य गतिम् अवलम्ब्य यत् तत्र मानं निर्धार्यते तदेव चान्द्रमानम् इत्यभिधीयते एवं नक्षत्राणाम् उदयद्वयान्तरं तदेव नक्षत्रं दिनं तादृश तत्र षष्ट्यधिकत्रिशतं दिनानि इत्युक्ते नक्षत्रमानम् इत्यभिधीयते सावनम् उदयादुदयं भादोः भूमिसावनवासरः एकस्मात् सूर्योदयात् द्वितीयसूर्योदयपर्यन्तं यः कालः भवति तदेव सावनं मानम् अत्र किञ्चित् वैशिष्ट्यं विद्यते अस्माभिः अस्माकं प्राचीन आचार्यैः भुवः स्थिरत्वम् उक्तं सूर्यः सञ्चरति इति किन्तु वयं पश्यामश्चेत् प्राचीनग्रन्थान् अवलोकयामश्चेत् तत्र भुवः सञ्चारः विद्यते भुवः भ्रमति इत्यपि प्राचीनैः ज्ञातमेव आसीत् किन्तु कालगणनाने भूः सञ्चरति वा सूर्यः सञ्चरति वा एतेन काल विभागे कोऽपि व्यत्यासः न जायते यतोहि श्रीपतिना विरचितं विरचितः ग्रन्थः विद्यते सिद्धान्तशेखरः इति तस्य व्याख्यानं मक्किभट्टेन विरचितं विद्यते त्रयोदशशतमाने काले सः मक्किभट्टः आसीत् सः व्याख्याने सावनदिनस्य तत्र प्रमाणम् एवं भूः यावत् तावत् वारं सूर्येण सह सम्मिलति भूः पूर्वाभिमुखं व्रजति सा यावत् तावत् वारं सूर्येण सह सम्मिलति तावन्ति सावनदिनानि इति स्पष्टतया उल्लिखति इत्युक्ते भुवः चलनं प्राचीनैः ज्ञातमेव आसीत् किन्तु पुराणेषु भूः स्थिरा इत्युक्तमासीत् तदर्थं पुराणस्य विरुद्धं गन्तुं ते नेच्छन्ति स्म तदर्थं तैः एतद्विषये किमपि नोक्तं किन्तु ते न जानन्ति इति न एवमेव ग्रहाणां तत्र भ्रमणस्य केन्द्रं भूकेन्द्रं नास्ति इत्यपि तैः स्पष्टमेव ज्ञातमासीत् यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये इति भास्कराचार्यैः सिद्धान्तशिरोमणौ स्पष्टतया उक्तं विद्यते इत्युक्ते इदानीं सूर्य एव ग्रहभ्रमणानाम् अस्माभिः भुवं परितः ग्रहाः भ्रमन्ति इति वयं वदामः यद्यपि ग्रहाः सूर्यं परितः भ्रमन्ति किन्तु वयं किं वदामः भुवं प्रति यत् वयं भुवि भवामः अस्माकं भूकेन्द्रितं गणितम् अपेक्षितं भूकेन्द्राभिप्रायेण ग्रहः कुत्र अस्ति इति अस्माकम् अपेक्षितं तदर्थम् अस्माभिः भूकेन्द्रिकं तत्र भ्रमणम् उक्तं तस्य शब्दशः अर्थः अस्माभिः न स्वीकार्यः तदर्थमेव अस्माभिः ग्रहाणां स्पष्टीकरणावसरे मन्दफलसंस्कारः शीघ्रफलसंस्कारश्च क्रियते एकेन संस्कारेण भूकेन्द्रीकृतं भूकेन्द्रीकृतसंस्कारः अपरः भवति सूर्यकेन्द्रीकृतसंस्कारः भवति एवम् एतादृशविषयाः प्राचीनैः ज्ञाताः एव आसन् अनन्तरं तत्र पश्यन्तु कालमानानां विषये तत्र पुनः अस्माभिः यतोहि वक्तव्यं भवति चान्द्रमानं सौरमानं तत्र चान्द्रमानं भिन्नं सौरमानं भिन्नं सौरसंवत्सरे एकस्मिन् वर्षे पञ्चषष्ट्यधिकत्रिशतं दिनानि भवन्ति 365 दिनानि भवन्ति एकस्मिन् सौरवर्षे एकस्मिन् चान्द्रवर्षे चतुःपञ्चाशत् अधिकत्रिशतं वर्षाणि भवन्ति 354 तत्र दिनानि भवन्ति तेन एकस्य वर्षस्य अन्ते एकादशदिनानां व्यत्यासः जायते द्वितीयवर्षस्य अन्ते द्वाविंशतिवर्षाणां स्वल्पान्तरेण दिनानाम् अन्तरं भवति एवं तृतीयवर्षे त्रयस्त्रिंशत् दिनानां वृत्यासः भवति अस्माकं तत्र उत्सवाः वा भवन्तु व्यवहारः उभाभ्यां सौरचान्द्रमासाभ्यां प्रवर्तन्ते यदि कदाचित् सौरचान्द्रयोः अन्तरमेव नास्ति चेत् तदा चान्द्ररीत्या अस्माभिः परिपाल्यमानाः उत्सवाः युगादिः रामनवमी श्रीकृष्णाष्टमी एते उत्सवाः ऋतुनियमम् उल्लङ्घ्य प्रवर्तन्त यतोहि तत्र युगादि युगादिस्तु सामान्यतः वसन्तमासे एव भवेत् एवं रामनवमी अपि तदा एव भवेत् किन्तु एतादृशरीति यतोहि ऋतु अनन्तरं मासाः अयनानि एतत् सर्वं सौरमासेन अस्माभिः गण्यते यदि चान्द्रमानेनैव वयं कुर्मः तर्हि कदाचित् इदानीम् आङ्ग्लरीत्या अहं वदामि मार्च् मासेपि तत्र रामनवमी आगच्छति कदाचित् जून् मासेपि आगच्छति कदाचित् डिसेम्बर् मासेपि आगच्छति केवलं चान्द्रेण वयम् अनुष्ठानं कुर्मश्चेत् तदर्थमेव उभयोः सौरचान्द्रयोः अन्तरस्य दूरीकरणाय अधिमासस्य कल्पना कृता तैः यदा एवम् अन्तरं यथा मया उक्तं स्वल्पान्तरेण वर्षस्य अन्ते एकादशदिनात्मकम् अन्तरम् आगच्छति यदा एतदन्तरम् एकमासात्मकं भवति तदा एकः अधिवासः यथा अग्रिमवर्षे तत्र एकः अधिवासः विद्यते यदा अधिवासः अस्माभिः कल्प्यते तदा किं भवति सौरचान्द्रान्तरं दूरं भवति एवम् एतदर्थमेव तैः तत्र अधिवासस्य कल्पना कृता तेषां कियद्दूरदृष्टिः पश्यन्ति इदानीं तुरुष्का इति वदामः तत्र ते केवलं चान्द्रम् अनुसरन्ति ते मुहर्रम् इत्यादि तत्र बक्रीद् इत्यादि उत्सवाः तेषां भवन्ति ते केवलं चान्द्रम् अनुसृत्य तत्र प्रवर्तन्ते तदर्थमेव कदाचित् बक्रीद् जनवरि मासेपि आगच्छन्ति कदाचित् मै मासेपि आगच्छन्ति कदाचित् डिसेम्बर् मासेपि आगच्छन्ति ऋतुनियमः नास्ति किन्तु मया एतत् आक्षेपार्थं नोच्यते कस्मिंश्चित् ऋतौ नियमेन भवेत् अस्माकम् उत्सवाः इति कारणादेव तत्र एतस्य नियमस्य उल्लङ्घनं न भवेत् इति कारणात् अधिवासस्य कल्पना एवं कदाचित् मासद्वयं भवति तत्र मासद्वयस्य लोपः भवति एतादृशमपि भवति असङ्क्रान्तिमासः अधिवासः द्विसङ्क्रान्तिमासः क्षयमासः इत्युच्यते यस्मिन् मासे सङ्क्रान्तिद्वयं भवति सः क्षयमासः यस्मिन् चान्द्रमासे सङ्क्रान्तिरेव न भवति सः अधिमासः इति इत्यादि व्यवस्था अस्माकं ज्योतिषशास्त्रे कृता विद्यते प्राचीने एवं पञ्चाङ्गं पञ्चाङ्गम् इत्युक्ते किं केलेण्डर् इदानीम् आधुनिक केलेण्डर् किन्तु एतस्य वैशिष्ट्यम् अजानन्तः वयम् इदानीम् एतत् ग्रिगोरियन् केलेण्डर् अनुसरामः तत्र पञ्चाङ्गस्य अवयवाः सन्ति तिथि नक्षत्र वार योगकरण तिथिः इत्युक्ते किं सूर्याचन्द्रमसोः द्वादशभागात्मकम् अन्तरं तिथिः इत्यभिधीयते यतो हि सूर्योपि अग्रे गच्छति चन्द्रोपि अग्रे गच्छति स्वल्पान्तरेण सूर्यः एकस्मिन् दिने एकम् अंशम् अग्रे गच्छति चन्द्रः एकस्मिन् दिने त्रयोदश अंशात्मकं दूरं गच्छति इत्युक्ते स्वल्पान्तरेण द्वादशभागात्मकम् अन्तरं तयोर्जातं यदा तयोर्मध्ये द्वादशभागान्तरम् अन्तरं भवति तदा एका तिथिः प्रतिपत् अद्य प्रतिपत् इत्युक्ते सूर्याचन्द्रमसोर्मध्ये द्वादशभागात् अल्पम् अन्तरं विद्यते इति ज्ञातुं शक्यते अद्य द्वितीया अस्ति द्वितीया इत्युक्ते सूर्यः चन्द्रः सूर्यात् द्वादशभागात् अधिकं चतुर्विंशति अंशात् अल्पान्तरितः भवति अद्य पूर्णिमा इत्युक्ते सूर्यात् चन्द्रः अशीत्यधिक एकशतमित अन्तरे 180 डिग्रि दूरे अस्ति पश्यतु कियत् खगोलशास्त्रं तत्र प्रमाणं विद्यते अस्य अद्य अमा सा वसते इति अमा इति सूर्याचन्द्रमौ दर्श सूर्येन्दु सङ्गमः अमा इत्युक्ते दर्शः सूर्यः चन्द्रस्य चन्द्रश्च राश्यादिना समानौ यदा भवतः स एव अमा इत्युच्यते एवं रविचन्द्रयोः गतिम् अनुसृत्य तत्र अस्माभिः तिथिः निर्णीयते तिथिवारः वारक्रमं पश्यन्तु वारक्रमः इदानीम् आदित्यवासरः सोमवासरः मङ्गलवासरः इत्यादि क्रमः भवति किमर्थम् अयं क्रमः अनुवर्तते आदित्यवासरः परं कुजवासरः भवतु अथवा गुरुवासरः भवतु एतदर्थमपि खगोलशास्त्रीयं तत्र प्रमाणं विद्यते ग्रहाणां गत्यनुरोधेन यथा यथाक्रमं शीघ्राः मन्दामरेज्यभूपुत्र इत्यादयः यथं क्रमं शीघ्राः ते होराधिकतयः भवन्ति एकस्मिन् दिने चतुर्विंशतिकालहोराः भवन्ति सूर्योदये यस्य कालहोरात् भवति स एव वाराधिपः भवति अस्माकं इयं धारणा विद्यते सृष्ट्यादौ सूर्यवासरः इति एवं ततः अस्माभिः तत्र गणना क्रियते चेत् तदा किं भवति तत्र एवं क्रमेण सूर्यादिवासराः भवन्ति तत्र ग्रहाणां गत्यनोधनेन गतिम् आश्रित्य अयं क्रमः भवति अत्यन्तं मन्दगिरिकः शनैश्चरः ततः परं गुरुः ततः कुजः ततः सूर्यः ततः शुक्रः ततो बुधः अन्ते चन्द्रः एवं चन्द्रः अत्यन्तं शीघ्रगतिकः भवति अस्मिन् क्रमे चतुर्थः दिवसाधिपः भवति उदाहरणार्थं शनि गुरु कुज सूर्य पश्यन्तु शनिवासरात् परं चतुर्थः रविः तदर्थं रवेः वासरः शनिवासरात् परम् अनन्तरम् एतस्मिन् क्रमे तत्र गणनां कुर्वन्तु रविवासरात् परं सोमवासरः आगच्छति एवं वारगणनायामपि तत्र खगोलशास्त्रीयं प्रमाणं विद्यते तिथि अनन्तरं वासरः नक्षत्रम् उदाहरणार्थम् अद्य श्रवणनक्षत्रम् इत्युक्ते अद्य श्रवणनक्षत्रस्य समीपे चन्द्रः विद्यते इत्यर्थः इतः परं किं प्रमाणम् अपेक्षितं कस्यचित् जन्मनक्षत्रं श्रवणम् इत्यस्य अभिप्रायः कः तस्य जन्मकाले चन्द्रः श्रवणनक्षत्रस्य समीपे आसीत् इतः परं किं प्रमाणम् अपेक्षितं भवति एवं योगः रविचन्द्रस्फुटयोः योग एव योगः तिथ्यर्थं करणम् एवं पञ्चाङ्गं पञ्चाङ्गे विद्यमानाः तत्र ये पञ्च अवयवाः सन्ति ते सर्वेपि अवयवाः खगोलशास्त्रम् आश्रित्य अस्माभिः तत्र अस्माभिः इत्युक्ते ज्योतिषशास्त्रज्ञैः निर्णीताः विद्यन्ते किन्तु मया निन्दार्थं नोच्यते उदाहरणार्थं पश्यामः अद्य अद्य डिसेम्बर् 27 इति वदामः अस्य किं प्रमाणं विद्यते वयं खगोलशास्त्रं तत्र खगोलं पश्यामश्चेत् किम् अस्माभिः ज्ञातुं शक्यते अत्र जनवरि फेब्रवरि इत्यादि मासान् नामानि सन्ति मासानां नामानि सन्ति पूर्वं दश एव मासाः आसन् इति ग्रिगोरियन् केलेण्डर् मध्ये अनन्तरं जूलियस् सीज़र् इति आसीत् तस्य नाम्नि जुलै मासः संयोजितः अगस्त् सीज़र् इति आसीत् तस्य नाम्नि तत्र अगस्ट् मासः संयोजितः एवं द्वादशमासाः अनन्तरं तत्र किमपि खगोलशास्त्रीयं प्रमाणं नास्ति किन्तु अस्माकं पश्यन्तु चैत्र वैशाख ज्येष्ठ आषाढ इति तत्र पश्यन्तु चित्रादितारकाद्वन्द्वे पूर्णमासी समन्विते मासाश्चैत्रादयो ज्ञेयाः त्रिकषष्ठान्त्यसप्तमाः इति चित्रादितारकाद्वन्द्वे चित्रास्वात्योः नक्षत्रयोः अद्यतमस्थे चन्द्रमसि यस्मिन् मासे पूर्णिमा भवति स मासः चैत्रमासः एवं विशाखा अनुराधयोः एवं क्रमेण तत्र चैत्रवैशाखादिनामान्यपि अत्र पश्यन्तु मासानां नामान्यपि तथा नक्षत्राणि आश्रित्य तत्र स्थापितानि सन्ति मा तत्र त्रयाणां मासानां नक्षत्रत्रयं त्रयं नियामकं भवति अन्येषां तत्र नवमासानां नक्षत्रद्वयं नियामकं भवति एवं चान्द्रमासानां नामान्यपि तत्र खगोलाश्रितानि भवन्ति एवं मेषादिमासः सौरमासः यावत्पर्यन्तं मेषराशौ विद्यते रविः तावत्पर्यन्तं मेषमासः वृषभमासः एवं तत्र खगोलशास्त्रस्य प्रमाणानि अवलम्ब्यैव तत्र एतानि प्रवर्तन्ते एवं तत्र कालगणना पञ्चाङ्गं यद्भवति तत्सर्वमपि खगोलाश्रितमेव भवति इत्येव अहं वक्तुम् इच्छामि अस्माकं तत्र ज्योतिषशास्त्रे यथा ज्योतिषशास्त्रे अस्माभिः सिद्धान्तसंहिताहोरा इति स्कन्धत्रयं तत्र उक्तम् त्रिस्कन्धात्मकं शास्त्रं सिद्धान्तस्कन्धः इत्युक्ते किं तृतीयादिप्रलयान्तकालकलनमानप्रभेदक्रमात् चारश्च द्विषदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः भूधिश्च ग्रहसंस्थितैश्च कथनं यन्त्रादि यत्र उच्यते सिद्धान्तस्य उदाहतोत्र गणक सिद्धगणकस्कन्धप्रबन्धे बुधैः इति सिद्धान्तस्य लक्षणम् उक्तं यत्र नवविधकालमानानि उक्तानि सूर्याचन्द्रवसोः ग्रहणानि चन्द्रस्य तत्र रव्यादीनां तत्र गतिभेदाः तेषां स्थितिभेदाः भूधिश्च ग्रहणसंस्थितैश्च कथनं भुवः स्थितिः गगने कथम् अस्ति ग्रहाः कथं भ्रमन्ति इत्यादिकं यत्र उच्यते स एव सिद्धान्तः इत्युच्यते अस्मिन् सिद्धान्ते आदौ तत्र किम् अस्माभिः कालमानानि उच्यन्ते पञ्चाङ्गसाधनं ग्रहस्पष्टीकरणं तत्र देशान्तर संस्कारः भुजान्तरसंस्कारः उदयान्तरसंस्कारः इत्यादि कृत्वा ग्रहस्पष्टीकरणं ग्रहस्पष्टीकरणं द्विधा क्रियते अस्माभिः एकं तु वेदेन यन्त्रादीनां साहाय्येन अस्माभिः स्वयं वेदं कृत्वा ग्रहाः आनीयन्ते अनन्तरम् अर्घणम् आनीय तत्र ग्रहाणां स्फुटीकरणं क्रियते एवं द्विधा सिद्धान्तस्य ग्रन्थेषु ग्रहानयनं क्रियते अनन्तरं चन्द्रशृङ्गोन्नति पश्यन्तु चन्द्रशृङ्गो तत्र शुक्लपक्षस्य द्वितीयायां तिथौ नूतनचन्द्रस्य दर्शनं भवति एतदस्माकम् अपेक्षितं भवति एतस्य ज्ञानं सुकरं नास्ति किन्तु तत्र गोलीयरेखाग्नसस्य तत्र नियमान् अवलम्ब्य अस्माभिः चन्द्रशृङ्गोन्नतिः अस्माभिः साध्यते स्फेरिकल् ट्रिग्नोमेट्रि इति वदन्ति किल एतदाश्रित्य उत्तरशृङ्गम् उन्नतं भवति वा अथवा दक्षिणशृङ्गम् उन्नतं भवति वा पञ्चाङ्गे लिखितं भवति एकवर्षात् पूर्वमेव उत्तरं शृङ्गम् उन्नतं दक्षिणं शृङ्गम् उन्नतम् एतादृशसूक्ष्मविषयाः अपि सिद्धान्तग्रन्थे उक्ताः भवन्ति एवं तत्र ग्रहणानि ಸೂರ್ಯಚಂದ್ರ ವಸೋ ಗ್ರಹಣಂ, ಗ್ರಹಣಂ ಇತ್ಯುಕ್ತೆ ಕಿಂ, ವಸುವಸ್ತು ಗ್ರಹಣಂ ಇತ್ಯುಕ್ತೆ ಕಿಮಪಿ ನಾಸ್ತಿ, ಕೋಪಿ ನ ಗೃಹಾತ್, ಕಿಂತು ಅಸ್ಮಾಕಂ ದೃಷ್ಟಿವಶಾತ್ ಸೂರ್ಯಗ್ರಹಣಂ ಚಂದ್ರಗ್ರಹಣಂ ವಾ ಭವತಿ. ಚಂದ್ರ ಸ್ವಕಕ್ಷಾಯಾಮೇವ ಭವತಿ, ಸೂರ್ಯ ಅತಿ ದೂರೆ ತಸ್ಯ ಕಕ್ಷಾಯಾಮೇವ ಭವತಿ, ಕಿಂತು ಅಸ್ಮಾಕಂ ದೃಷ್ಟಿಸೂತ್ರೆ ಸೂರ್ಯಸ್ಯ ತತ್ರ ದರ್ಶನೆ ಯದಾ ಚಂದ್ರ ಪ್ರತಿರೋಧಕ ಭವತಿ ತದಾ ಸೂರ್ಯಗ್ರಹಣಂ ಏವಂ ಚಂದ್ರಗ್ರಹಣಂ ತದರ್ಥಂ ತತ್ರ ಬಹು ಗಣಿತ ವಿಧಾನಂ ವಿದ್ಯತೆ ತದಿದಾನೀಂ ಅಹಂ ನ ಕಥಯಿತುಂ ಇಚ್ಛಾಮಿ. ತತ್ರ ಕಸ್ಮಿನ್ ಗ್ರಹಣೆ ಉದಾಹರಣಾರ್ಥಂ ಪಶ್ಚಿಮಾಯಂ ಸ್ಪರ್ಶಃ ಏವಂ ಪೂರ್ವಸ್ಯಾಂ ದಿಶಿ ಸ್ಪರ್ಶ ಮೋಕ್ಷಃ ಸೂರ್ಯಗ್ರಹಣೆ ಭವತಿ, ಚಂದ್ರಗ್ರಹಣೆ ತು ಪೂರ್ವಸ್ಯಾಂ ದಿಶಿ ಸ್ಪರ್ಶಃ ದಕ್ಷಿಣಸ್ಯಾಂ ದಿಶಿ ತತ್ರ ಮೋಕ್ಷಃ. ಅನಂತರಂ ಗಣಿತಸ್ಯ ಪಂಚ ಪ್ರಕಾರಃ ಸ್ಪರ್ಶ ನಿಮೀಲನಂ ಮಧ್ಯಗ್ರಹಣಂ ಉನ್ಮೀಲನಂ ಮೋಕ್ಷಃ ಇತ್ಯಾದಿ ಕಾಲಃ ಕಥಂ ಸಾಧನೀಯಃ ಇತ್ಯಾದಿ ವಿಸ್ತೃತ ವಿಚಾರಃ ತತ್ರ ಉಕ್ತಃ ವಿದ್ಯತೆ. ಪ್ರತಿಪೂರ್ಣಿಮಾಯಾಂ ಕಿಮರ್ಥಂ ಗ್ರಹಣಂ ನ ಭವತಿ, ಪೂರ್ಣಿಮಾಯಾಮೇವ ಕಿಮರ್ಥಂ ಗ್ರಹಣಂ ಭವತಿ, ಪ್ರತಿಪೂರ್ಣಿಮಾಯಾಂ ಕಿಮರ್ಥಂ ನ ಭವತಿ, ಅಮಾಯಾಮೇವ ಚಂದ್ರಗ್ರಹಣಂ ಕಿಮರ್ಥಂ ಭವತಿ, ಪ್ರತಿ ಅಮಾಯಾಂ ಕಿಮರ್ಥಂ ನ ಭವತಿ ಇತ್ಯಾದಿ ವಿಚಾರಃ ತತ್ರ ಚರ್ಚಿತಾಸ್ಸಂತಿ. ತರ್ಹಿ ಅಸ್ಮಾಭಿರುಚ್ಯತೆ ಪುರಾಣೇಷು ರಾಹುಕೃತಂ ಗ್ರಹಣಂ ಅನಂತರಂ ಕೇತುಕೃತ ಗ್ರಹಣಂ ಇತ್ಯುಚ್ಯತೆ ಇತ್ಯಾದಿ ಜ್ಯೋತಿರ್ವಿದ್ಧಿ ತಥಾ ನೋಚ್ಯತೆ. ತಥಾಪಿ ಭಾಸ್ಕರಾಚಾರ್ಯ ಅತ್ಯಂತ ಬುದ್ಧಿವಂತಃ ಭವಂತಿ, ತೇ ಪುರಾಣಸ್ಯ ವಿರುದ್ಧಂ ನ ಕದಾಪಿ ಯಚ್ಛಂತಿ. ತೇ ಅತ್ಯಂತಂ ತತ್ರ ತೇಷಾಂ ದೃಷ್ಟಿ ಅತ್ಯಂತಂ ಕೆಂ ದೂರದೃಷ್ಟಿ ವಿದ್ಯತೆ. ತೇ ಪುರಾಣವರ್ತಂ ನ ಖಂಡೆಯತಿ. ತೇ ವದಂತಿ ರಾಹುಕುಭಾಮಂಡಲಗ ಶಶಾಂಕಂ ಶಶಾಂಕಗಚ್ಛಾದಯತೀನ ಬಿಂಬಂ ತಮೋಮಯ ಶಂಭು ವರಪ್ರಸಾದ ಸರ್ವಾಗಮಾನಾಂ ಅವಿರುದ್ಧಮೇವಂತಿ. ಚಂದ್ರಗ್ರಹಣೆ ಭೂಚ್ಛಾಯಾಂ ಚಂದ್ರ ಭವಿಷ್ಯತಿ ಅನಂತರಂ ಚಂದ್ರ ಗೃಹಾತ್. ಸೂರ್ಯಗ್ರಹಣೆ ರಾಹು ಚಂದ್ರಬಿಂಬಂ ಪ್ರವಿಶ್ಯ ಸೂರ್ಯಂ ಗೃಹಾತಿ ಇತಿ ವದಾಮಃ. ಪುರಾಣಸ್ಯ ವಚನಮಪಿ ಸತ್ಯಂ ಭವತಿ, ಅಸ್ಮಾಕಂ ಜ್ಯೋತಿಷಶಾಸ್ತ್ರಸ್ಯ ವಚನಮಪಿ ಸತ್ಯಂ ಭವತಿ, ತತ್ರ ವಿರೋಧ ಮಾಸ್ತು ಇತಿ. ಅನ್ಯದಪಿ ಅಸ್ತಿ ಭೂ ಅನಂತರ ಚಂದ್ರಸ್ಯ ಸಂಚಾರ ಮಾರ್ಗಃ ಸೂರ್ಯಸ್ಯ ಸಂಚಾರ ಮಾರ್ಗಃ ಅನಯೋಃ ಸ್ಥಾನದ್ವಯೇ ತತ್ರ ಮೇಲನಂ ಭವತಿ, ಏಕಃ ಸಂಪಾತಃ ರಾಹುಃ ಅಪರಃ ಸಂಪಾತಃ ಕೇತುಃ ಇತಿ ಭವತಿ ಇತಿ ನಾಮ್ನಾ ಭವತಿ. ಯದಾ ಸಂಪಾತಸ್ಯ ಸಮೀಪೇ ಭವತಃ ತದಾಯೋ ಗ್ರಹಣಂ ಭವತಿ. ತದರ್ಥಮಪಿ ಕೇತುಗ್ರಹಣಂ ರಾಹುಗ್ರಹಣಂ ಇತ್ಯುಚ್ಯತೆ ಚೇತ್ ತದಾ ದೋಷಃ ಕೋಪಿ ನಾಸ್ತಿ ಗಣಿತದೃಷ್ಟ್ಯಾ. ಏವಂ ಏತಾದೃಶ ಸಮನ್ವಯ ಸಿದ್ಧಾಂತಃ ಭಾಸ್ಕರಾಚಾರ್ಯೈಃ ಬಹುತ್ರ ಪ್ರತಿಪಾದ್ಯತೆ ಸಿದ್ಧಾಂತಗ್ರಂಥೇಷು. ಏವಮೇವ ಗ್ರಹಣಾಂ ಉದಯಃ ಅಸ್ತಮನಂ, ಗ್ರಹಣಾಂ ಉದಯಃ ಅನಂತರಂ ಅಸ್ತಮನಂಚ ದ್ವಿಧಾ ಭವತಿ. ಏಕಂ ತು ದೈನಂದಿನಂ, ಯತೋ ಹಿ ಪ್ರತಿದಿನಂ ಅಸ್ಮಾಕಂ ಕ್ಷಿತಿಜಾತ್ ಅಧಃ ಯದಾ ಗ್ರಹಾಃ ಭವಂತಿ ತದಾ ಅಸ್ತಂಗತಾಃ ಭವಂತಿ. ಅಸ್ತಮನಂ ಇತ್ಯುಕ್ತೆ ಅದರ್ಶನಂ. ಯದಾ ಅಸ್ಮಾಕಂ ಕ್ಷಿತಿಜಾತ್ ಉಪರಿ ಆಯಾಂತಿ ತದಾ ತೇಷಾಂ ದರ್ಶನಂ ಭವತಿ, ತದೇವ ದೈನಂದಿನ ಅಸ್ತಮಯ ಉದಯ. ಕಿಂತು ಕ್ವಚಿತ್ ಸೂರ್ಯಸ್ಯ ಸಮೀಪೆ ಯದಾ ಗ್ರಹಾಃ ಆಗಚ್ಛಂತಿ ತದಾ ತೇಷಾಂ ದರ್ಶನಂ ನ ಭವತಿ ಸೂರ್ಯ ಸಾನ್ನಿಧ್ಯವಶಾತ್. ತೋರಿ ಗ್ರಹಾಣಾಂ ಸ್ವಯಂ ಪ್ರಕಾಶಃ ನಾಸ್ತಿ ಇತಿ ತತ್ರ ಪ್ರಾಚೀನಾ ಅಪಿ ಜಾನಂತಿ ಸ್ಮ. ತೇಜಸಾಂ ಗೋಲಕ ಸೂರ್ಯ ಗ್ರಹಭಾವಂತೋ ಹಿ ದೃಶ್ಯಂತೆ ಸೂರ್ಯರಶ್ಮಿ ಪ್ರದೀಪಿತಾಃ ಇತಿ ಸುಸಿದ್ಧಾಂತಾದಿ ಗ್ರಂಥೇಷು ಉಚ್ಯತೆ. ಏವಂ ಗ್ರಹಾಃ ಯದಾ ಸೂರ್ಯಸ್ಯ ಪ್ರಖರ ಕಿರಣಸ್ಯ ಸೂರ್ಯಸ್ಯ ಸಮೀಪಂ ಆಯಾಂತಿ ತದಾ ತೇಷಾಂ ದರ್ಶನಂ ನ ಭವತಿ. ಏತದೇವ ತತ್ರ ಅಸ್ತಮನಂ ಸೂರ್ಯಸಾನ್ನಿಧ್ಯವಶಾತ್ ಅಸ್ತಮನಂ ಇತ್ಯುಚ್ಯತೆ. ಗುರುಶುಕ್ರಯೋಃ ಅಸ್ತಮನಂ ತತ್ರ ವಿವಾಹಾದಿ ಕಾರ್ಯೇಷು ನೇಷ್ಯತೆ. ತದರ್ಥಂ ಗುರೋಃ ಅಸ್ತಮನಂ ಕದಾ ಭವತಿ, ಕದಾ ಶುಕ್ರಸ್ಯ ಅಸ್ತಮನಂ ಭವತಿ. ಏತದರ್ಥಮಪಿ ತತ್ರ ಕಾಲಾಂಶಾನ್ ಜ್ಞಾತ್ವಾ ತದರ್ಥಮೇವ ಸೂಕ್ಷ್ಮ ಗಣಿತಂ ವಿದ್ಯತೆ. ತತ್ರ ದೃಕ್ಕರ್ಮ ಸಂಸ್ಕಾರ ಅತ್ಯಂತಂ ಸೂಕ್ಷ್ಮಃ ಭವತಿ. ಆಯನಂ ದೃಕ್ಕರ್ಮ ಆಕ್ಷಿಜನ್ ದೃಕ್ಕರ್ಮ ಇತ್ಯಾದಿ ತಾದೃಶ ಸೂಕ್ಷ್ಮ ಗಣಿತಾನಿ ಅವಲಂಬ್ಯ ಗ್ರಹಾಣಾಂ ಉದಯಕಾಲಃ ಅಸ್ತಮಯಕಾಲಶ್ಚ ಅಸ್ಮಾಭಿಃ ನಿರ್ಣೀಯತೆ ಸಿದ್ಧಾಂತಗ್ರಂಥೇಷು. ಏವಂ ಇತೋಪಿ ಬಹವಃ ವಿಷಯಾಃ ಸಂತಿ, ಅಹಂ ಕೇವಲಂ ಸಿದ್ಧಾಂತ ಭಾಗಮೇವ ಅವಲಂಬ್ಯ ವದಾಮಿ ಚೇತ್ ಬಹುಘಟ್ಟಾಪರ್ಯಂತ ಬಂದು ಯತೋ ಹಿ ತಥಾ ಕಾಲವೃತ್ತಿಃ ನಾಸ್ತಿ. ಏವಂ ಭುವಃ ಆಕರ್ಷಣ ಸಿದ್ಧಾಂತಃ ಇತ್ಯುಚ್ಯತೆ, ಇದಾನೀಂ ಅಸ್ಮಾಭಿಃ ನ್ಯೂಟನ್ ಮಹೋದಯೇನ ಉಕ್ತಃ ಇತ್ಯುಚ್ಯತೆ. ಕಿಂತು ಭೋ ಪ್ರಾಗೇವ ತತ್ರ ಆಕೃಷ್ಟಿ ಶಕ್ತಿಶ್ಚ ಮಹೀತಯಾ ಯಶ್ಚ ಹಸ್ತಂ ಗುರು ಸ್ವಾಭಿಮುಖಂ ಸಶಕ್ತ್ಯ ತತ್ ಪತತೀವ ಭಾತಿ ಇತಿ. ತತ್ರ ಯದ್ಕಿಮಪಿ ವಸ್ತು ಅಸ್ಮಾಭಿಃ ಉತ್ಕ್ಷಿಪ್ಯತೆ ಚೇತ್ ಅನಂತರಂ ಪುನಃ ಭುವಂ ಪ್ರಾಪ್ನೋತಿ. ತತ್ರ ಕಾರಣಂ ಕಿಂ, ಭುವಃ ಆಕರ್ಷಣ ಶಕ್ತಿರೇವ ಇತಿ ಭಾಸ್ಕರಾಚಾರ್ಯಃ ಸ್ಪಷ್ಟೈಃ ಪದೈಃ ಉಲ್ಲಿಖಂತಿ. ತೇ ಭುವಃ ತತ್ರ ಜೈನಃ ಭೂಃ ಪತತಿ ಇತಿ ವದಂತಿ, ತಥಾ ಜೈನಮತಂ ತೇ ಖಂಡಯಂತಿ. ತತ್ರ ಏವಂ ತತ್ರ ಸ್ವಾರಸ್ಯಂ तत्र कथं खण्डयन्ति इत्युक्ते एकं अत्यन्तं सूक्ष्म तत्र सरलम् उदाहरणं यच्छन्ति यत् वस्तु लघु भवति तत् सामान्यतः किं भवति विलम्बेन भूमिं प्राप्नोति यत् भार पतति यस्य यत् बृहत् भवति तद्वस्तु वेगेन पतति सर्वदा अयं नियमः अस्ति यदि भूः पतति गग आकाशे तर्हि भूमितः यत्किमपि वस्तु अस्माभिः उपरि उत्क्षिप्यते चेत् तद्वस्तु भूमिं न प्राप्यते यतोहि भूः वेगेन पतति तद्वस्तु भूमिं कथं वा प्राप्येत किन्तु एवम् अस्माकम् अनुभवः नास्ति यत्किमपि कन्दुकं वा वयम् उत्क्षिपामश्चेत् भूमं प्राप्नोति तदर्थं भूः न पतति किन्तु भूयि तद्वस्तु पतति तत्र पतनं नास्ति वस्तुतस्तु भुवः आकर्षणवशात् तत् पतति इति सिद्धान्तशिरोमणौ भास्कराचार्यैः स्पष्टतया उक्तं विद्यते एवं व्यासपरिधिसम्बन्धः अस्माभिः पै पै इत्युच्यते पै इत्युक्ते किमिति कोऽपि न जानाति अस्माभिः तत्र अस्माभिः पै पै इत्युच्यते 22/7 द्वाविंशति तत्र सप्त तस्य भाजकः इत्युक्ते पै इत्युक्ते किं तस्य विवरणं न किन्तु प्राचीनग्रन्थेषु यस्य वृत्तस्य द्वाविंशतिपरिधिः भवति तस्य व्यासः सप्त वस्तु अस्तु पै इत्युक्ते इदानीं पृच्छामश्चेत् बहवः न जानन्ति केवलं पै पै इत्येव वदन्ति द्वाविंशति यस्य वृत्तस्य परिधिः भवति तस्य व्यासः सप्त एतत् पूर्वमेव उक्तं विद्यते एतस्यापि अपेक्षया सूक्ष्मप्रमाणं तत्र आर्यभटेन आर्यसिद्धान्ते उक्तं विद्यते 400 द्विषष्टिसहस्राणाम् अयुतद्वयविष्कम्भस्यासन्दो वृत्तपरिणामः परिणामः यस्य वृत्तस्य परिधिः तत्र संस्कृत कदाचित् आङ्ग्लभाषया वदामि 62,832 भवति 32,800+ यस्य वृत्तस्य परिधिः भवति तस्य व्यासः 20,000 इत्युक्ते यस्य वृत्तस्य परिधिः 20,000 व्यासः 20,000 भवति तस्य परिधिः 62,832 इति आर्यभटः उक्तवान् यदा गणिते भाजकः महत् भवति तदा फलमपि सूक्ष्मम् आगच्छति एवं तत्र आर्यभटेन 22/7 इत्यपेक्षयापि सूक्ष्म तत्र पैमानभूतम् वस्तुति एवमेव भास्कराचार्य व्यासे भनन्दाग्निमते विभक्ते खबाणसूर्यैः परिधिः सूक्ष्मः व्यासः भनन्दाग्नि भ इत्युक्ते 27 नन्द नव अग्नित्रयं भनन्दाग्नि इत्युक्ते तत्र यथा मया उक्तं 3927 यस्य वृत्तस्य परिधिः भवति तस्य व्यासः 1250 भवति इति तस्यैव तत्र तत्र किम् अपवर्तनं कृत्वा उक्तं विद्यते एवम् अनेके विषयाः तत्र सिद्धान्तग्रन्थेषु एवं तत्र अव्यक्तगणितं व्यक्तगणितं लीलावती तत्र भास्कराचार्यस्य ब्रह्मगुप्तस्य तत्र पाटीगणितं तु अत्यन्तं प्रसिद्धं विद्यते एवं बीजगणितं कदाचित् सर्वमपि गणितम् अस्माभिः व्यक्तगणितेन कर्तुं न शक्यते तदा अव्यक्तस्यापि अपेक्षा भवति एवं त्रैराशिक पञ्चाराशिकविधानानि सर्वाणि तत्र उक्तानि विद्यन्ते गणितशास्त्रे इतः परम् अन्यः भागः विद्यते होराशास्त्रं यथा सिद्धान्तसंहिता होरा होरा इत्युक्ते किं होरेत्यहोरात्रविकल्पमेके वाञ्छन्ति पूर्वा परवर्णलोपात् कर्मार्जितं पूर्वभवे सदादि यत्तस्य पङ्क्तिं समभिव्यनत्ति होरात्र इति पदस्य होरा इति विकल्पः अस्ति तत्र प्रथम अक्षरम् अन्तिम अक्षरम् अहोरात्र इति पदस्य प्रथमम् अक्षरम् अ अन्तिमं त्र इति निष्कास्य होरा इति पदम् अवशिष्टं तत् किं भवति इत्युक्ते पूर्वभवे सदादि यत् कर्म तस्य पङ्क्तिं समभिव्यनत्ति अस्माभिः प्राचीनजन्मनि यत् शुभाशुभं कर्म अनुष्ठितं तस्य फलम् एतत् होराशास्त्रं सूचयति इति तत्र होराशास्त्रस्य परमं रहस्यं तत्त्वं विद्यते अस्माकं तत्र प्राचीनानाम् अयं तत्र विश्वासः किं जन्मान्तरफलं तत्र अनुवर्तते इति प्रारब्धं कर्म अस्माभिः अवश्यम् अनुभोक्तव्यमेव एतत् कर्म किं सूचयन्ति अस्माकं जन्मकालिक ग्रहाः सूचयन्ति इति ग्रहाणां स्थितिभेदेन पुरुषान् योजयन्ति हि फलैः कर्मसमुद्भूतैः इति योगाः प्रकीर्तिताः जन्मकाले विभिन्नस्थानस्थिताः ग्रहाः जातकेन प्राग्जन्मति कृतानां तत्र कर्मणां तत्र फलानि बोधयन्ति इति ज्योतिषशास्त्रस्य परमं रहस्यम् अत्र होराशास्त्रं यथा उक्तं होरा इत्युक्ते एकं दिनम् एकस्मिन् दिने द्वादशराशीनां तत्र उदयः भवति लब्धं लब्धम् अस्माभिः तत्र होराशास्त्रे फलनिर्धारणार्थम् आदौ लब्धम् आनीयते राशीनाम् उदयो लब्धं ते तु मेषवृषादयः इत्युक्ते क्रान्तिवृत्तं सूर्यस्य सञ्चारवृत्तं क्रान्तिवृत्तम् इत्यभिधीयते तत्र अश्विन्यादिनक्षत्राणि द्वादशराशयश्च भवन्ति एतद् भचक्रम् इत्यभिधीयते एतत् पश्चिमाभिमुखं सर्वदा भ्रमति यद्यपि भूः पूर्वाभिमुखं भ्रमति किन्तु अस्माभिः किम् उच्यते पश्चिमाभिमुखं तत्र राशिचक्रं भ्रमति इत्युच्यते अत्र कोऽपि व्यत्यासः गणिते न भवति तर्हि अस्माकम् इष्टकाले क्रान्तिवृत्तस्य यः भागः पूर्वक्षितिजे स्पृशति सः भाग एव लब्धम् इत्यपि अस्माभिः अभिधीयते एतत् लब्धं ज्ञात्वा अस्माभिः तत्र के ग्रहाः दृश्यचक्रार्धे सन्ति के अधः क्षितिजात् अधः सन्ति इति निर्णीयते पश्यन्तु तत्र एतदर्थमपि विज्ञानं विद्यते तत्र लग्नस्य निर्णयः नो चेत् लग्नं किमर्थं निर्णेतव्यम् अस्माकम् इष्टकाले के ग्रहाः अस्माकं क्षितिजात् उपरि भवन्ति के ग्रहाश्च अधः भवन्ति इति ज्ञानं लग्ननिर्णयेन अस्माकं भवति तदर्थं ज्योतिषशास्त्रे फलादेशे लग्नस्यैव तत्र प्राधान्यम् आदौ लग्नं निर्णीय अनन्तरं फलानि निर्णीयन्ते अत्र पश्यन्तु तत्र ग्रहाणां फलानि कथं निर्णीतानि सन्ति मानवानां केचन समानधर्माः ग्रहाणामपि केचन समानधर्माः धर्माः अयं मानवः पञ्चभूतात्मकः अत्र पञ्चभूतसम्बद्धम् एतत् सम्बद्धम् एतत् शरीरम् अत्र सप्तधातवः भवन्ति वातपित्तकफादयः भवन्ति मानवेषु अपि सत्वरजस्तमोगुणाः भवन्ति एवं वर्णाः पुरुषः स्त्री इत्यादि विभागाः नपुंसक इत्यादि विभागाः अनन्तरं जातयः भवन्ति एवमेव ग्रहेषु अपि ते आरोपिताः ग्रहाः अपि तत्र वातपित्तकफात्मकाः ते अपि पञ्चभूतात्मकाः ते अपि सत्वरजस्तमो गुणोपेताः भवन्ति यथा सूर्यः पित्ताधिकः चन्द्रः कपाधिकः पुनः बुधः त्रिगुणोपेतः पुनः वातकफात्मकः तत्र गुरुः इत्यादि वातकसम्बन्धः उक्तः अनन्तरं तत्र पञ्चभूतसम्बन्धः पञ्चभूतः सम्बन्धोऽपि ग्रहाणाम् उक्तः सूर्यः अनन्तरं कुजश्च उभावपि एतौ अग्निभूतात्मकौ भवतः चन्द्रः शुक्रश्च जलभूतात्मकौ भवतः एवं बुधः पृथ्वी भूतात्मकः भवति गुरुः आकाशभूतेन सम्बन्धः भवति एवम् आकाशभूतसम्बद्धः उक्तः अस्माकम् इन्द्रियाणि भवन्ति अस्माकं पञ्च इन्द्रियाणि भवन्ति तत्र शब्दगुणम् आकाशः इत्युच्यते तत्र आकाशभूतो सम्बद्धः भवति गुरुः तदर्थं कर्णस्य विचारः गुरुणा अस्माभिः क्रियते नेत्रं नेत्रमित्युक्ते अग्निभूतसम्बद्धः भवति तत्सम्बद्धः ग्रहः रविः अनन्तरं कुजः एताभ्यां नेत्रविचारः अस्माभिः क्रियते एवं गन्धवती पृथ्वी पृथ्वीभूतसम्बन्धः तदङ्गं भवति अस्माकं शरीरे नासिका तदर्थं नासिकायाः विचारः बुधेन क्रियते एवं तत्र अस्माकम् आस्यं मुखं तत्र रसना विद्यते तस्याः विचारः शुक्रात् क्रियते यतोहि रसः जल एवं तत्र एतादृशसम्बन्धान् तत्र आरोप्य अस्माभिः ग्रहाणां शुभाशुभ तत्र विचारः निर्णीयते
एवं तत्र यथा मानवेषु पुरुषाः स्त्रियः नपुंसकाः भवन्ति तथैव सूर्यः कुजः गुरवः कुजगुरवः एते पुरुषग्रहाः भवन्ति शुक्रः अनन्तरं चन्द्रश्च स्त्रीग्रहौ बुधः शनि नपुंसकौ भवतः एवं यदि जन्मकाले तत्र पुरुषग्रहाः बलिष्ठाः भवन्ति पुरुषसन्तानं जायते स्त्रीग्रहाः बलिष्ठाश्चेत् स्त्रीसन्तानं नपुंसकश्चेत् नपुंसकम् एवं तत्र गर्भाधानादि मुहूर्तविचारे तत्र गर्भाधानादिसंस्कारः पुंसवनसंस्कारः इत्यादिषु पुरुषग्रहाणां वासरेषु इदानीं पुंसवनसंस्कारः पुमान् श्रूयते अनेन इत्यनेन पुंसवनसंस्कारः क्रियते. तत् तदर्थं सामान्यतः तत्र कुजवासरः रविवासरश्च तत्र दुष्टग्रहाणां वासरौ इति अस्माभिः अभिधीयते. किन्तु पुंसवनसंस्कारे सूर्यवासरः कुजवासरः अनन्तरं गुरुवासरः स्वीक्रियते, यतोहि पुरुषग्रहं पुरुषग्रहाः इति भवति. पुरुषग्रहाणां वासरेषु सः संस्कारः क्रियते. एवं सर्वेपि विचाराः, एवं तत्र ब्राह्मण क्षत्रिय वैश्य शूद्र इत्यादि ग्रहेषु अपि भेदाः सन्ति. सत्वरजस्तमो गुणाः एतेपि सन्ति. सत्त्वगुणाधिकः ग्रहः यदि जन्मकाले वरिष्ठः भवति तर्हि मानवः जातः सत्त्वगुणाधिकः भवति. एवं यदि तत्र तमोगुणप्रधानः भवति तदा तत्र अस्माकम् उद्योगोऽपि तथैव. कदाचित् कीदृशः उद्योगः अस्य जनस्य भवेत्? तमोगुणप्रधानः ग्रहश्चेत् तदा मिलिटरि पोलिस् इत्यादिषु तत्र भवतः तत्र यशस्विता भवति इति वक्तुं शक्यते. एवं सत्त्वगुणप्रधानश्चेत् शिक्षकः, देवपूजा इत्यादिषु. अनन्तरं रजोगुणप्रभावश्चेत् एड्मिनिस्ट्रेशन्. एवं तत्र निर्णीयते, विषयः निर्णीयते. एवम् अस्माभिः यानि फलानि निर्णीयन्ते तत्र मूलं विद्यते. एवमेव ग्रहाणां तत्र बलानि, यथा बलवान् जनः एव तत्र किमपि कर्तुं पारयति. तदर्थमेव जन्मकाले के ग्रहाः बलिष्ठास्सन्ति तेषां बलानि कीदृशानि सन्ति, षड्बलम् आनीय तत्र ग्रहः बलिष्ठः, तत्र गणितनियमाः सन्ति, तदनुरोधेन अस्माभिः ग्रहबलम् आनीयते. अनन्तरम् अन्यदपि अस्ति, कुजेन्दुहेतुप्रतिमासमार्तमं गते तु पीडर्च मनुक्षनिधितौ इत्यादि कश्चित् श्लोकः अस्ति. प्रजम रजोदर्शनं स्त्रीणां, यतोहि एतदेव अत्यन्तं प्रामुख्यं भवति, मनुष्यस्य जन्मकारणं भवति. तत् एतत् गर्भसमक्षं रजः स्त्रीषु कदा प्रवर्तते इत्यर्थं कुजेन्दुहेतुप्रतिमासमार्तवं. कुजः पित्तकारकः, चन्द्रः रक्तकारकः भवति. पित्ते तत्र रक्ते पित्तेन क्षुभिते रजः जायते स्त्रीणाम् इति तत्र वराहमीराचार्यैः कुजेन्दुहेतुप्रतिमासमार्तवं. तत्र तेषां श्लोकाः अत्यन्तम् अप्रकटरूपेण सन्ति, सूत्ररूपेण सन्ति. कुजेन्दुहेतुप्रतिमासमार्तवं प्रतिमा इति अक्षरसङ्ख्यया, प्र इत्युक्ते द्वयं, त इत्युक्ते सप्त, मा इत्युक्ते पञ्च, एवम् आहत्य त्रयोदशसङ्ख्या. त्रयोदशवर्षे सामान्यतः आरम्भः भवति इत्यर्थः. अनन्तरम् एतत् कियत्पर्यन्तं? कामिनी का, क इत्युक्ते एकं, मा इत्युक्ते पञ्च, एकपञ्चाशद्वर्षपर्यन्तम् एतत् प्रवर्तते इति. एवं तत्र रहस्यान्यपि तत्र तैः तत्र संस्थापितानि सन्ति श्लोकेषु. न केवलं तत्र एतेषां ग्रहाणां प्रभावः सामान्यजनेषु भवति, भुवि विद्यमानानां सर्वेषाम् उपरि ग्रहाणां प्रभावः विद्यते इति ज्योतिषशास्त्रस्य ग्रन्थेषु तत्र निर्णीयते. उदाहरणार्थं वृक्षाणाम् उपरि अपि अस्ति, अन्तःसारान् जनयति रविः, दुर्भगान् सूर्यसूनुः, क्षीरोपेतान् तुहिदकिरणः, पुष्पवृक्षांश्च कण्टकाढ्यांश्च भौमः, वागीषद्यौ सफलविफलौ, दुर्भगान् सूर्यसूनुः इति. एवं तत्र अन्तःसारान् जनयति रविः, ये अन्तःसारा, ये अत्यन्तं कठिनाः वृक्षाः भवन्ति तान् रविः जनयति. कण्टकाढ्यांश्च भौमः, कण्टकवृक्षाणां जनय तत्र कुजः जनयति. वागीषद्यौ सफलविफलौ, वागीशः, वागीशः इत्युक्ते गुरुः, सः सफलः इत्युक्ते सः एव सन्तानकारकः इति अस्माभिः निर्णीयते. तदर्थमेव सफविफलौ, ज्ञः बुधः, सः नपुंसकग्रहः, विफलग्रहः भवति. पुष्पवृक्षांश्च शुक्रः, शुक्रः कामकारकः, सः पुष्पवृक्षान्, वसन्त ऋतुः तस्य भवति. चन्द्रः क्षीरोपेतान् तुहिदकिरणः, क्षीरोपेतः रब्बर्, अनन्तरं यत्र इक्षु, यत्र रसः भवति, तादृशवृक्षाणां कारकः चन्द्रः भवति. एवं सकलं चराचरम् एतैः ग्रहैः तत्र प्रभावितं भवति इति सम्यक् होराशास्त्रे निर्दिष्टं भवति. अनन्तरं राजयोगाः, तत्र दशासाधन, तर्हि फलानि कदा भवन्ति, तत्र आयुः, आयुःपूर्वं परीक्षेत, पश्चाल्लक्षणमादिशे, ग्रहायुषान्तुभर्त्यानां लक्षणैः किं प्रयोजनम् इत्यनुरोधेन आदौ तत्र आयुः निर्धारणीयं भवति जातकस्य. तत् आयुर्निर्धारणार्थमपि तत्र गणितविधानम् आश्रित्य अस्माभिः सूर्यः एतावन्ति वर्षाणि ददाति, चन्द्रः एतावन्ति वर्षाणि ददाति, उच्चस्थश्चेत् कति वर्षाणि, नीचस्थः कति वर्षाणि इति. एवम् अत्यन्तं वैज्ञानिकरीत्या तत्र आयुस्साधनं क्रियते. तदनुरोधेन कस्यचित् जनस्य आयुः निर्धारणं क्रियते. अनन्तरं दशवर्षाणि आनीयन्ते. अनन्तरं योगानां निर्णयः क्रियते. राजयोगाः, अनन्तरं चन्द्रसम्बद्धाः योगाः, नीचयोगाः इत्यादि बहवः योगाः तत्र ज्योतिषशास्त्रस्य ग्रन्थेषु तत्र उक्ताः सन्ति. एवं होराशास्त्रम्. इतः परं तृतीयः स्कन्धः भवति संहिता इति. संहितास्कन्धे प्रायशः ज्योतिषशास्त्रगतसर्वेपि विषयाः तत्र उच्यन्ते. अस्मिन् सामान्यतः रव्यादीनां चारात् सञ्चारवशात् नक्षत्रेषु सञ्चारवशात् भूमौ कीदृशानि फलानि भवन्ति इत्यादि विचाराः तत्र रव्यादिचाराणां तत्र अध्यायेषु तत्र उक्तं भवति. अनन्तरं पर्जन्यगल्पलक्षणं. तत्र संहिताविभागे सामान्यतः अस्माकं दैनन्दिनजीवने ये अत्यन्तम् आवश्यकविषयाः सन्ति तेषां तत्र तत्र ज्ञानार्थं बहवः विषयाः उक्ताः सन्ति. उदाहरणार्थं पर्जन्यगर्भलक्षणम्, इदानीं मिटियोलजि इति वदामः, तत्र वृष्टिः कदा जायते,
किमपि केवलं तत्र निरीक्षणेन, ओब्सर्वेशन्, कान्स्टेण्ट् ओब्सर्वेशन् इति अस्माभिः उच्यते किल, तथा मिटियोलजि इत्युक्ते तथैव अस्ति. ते वदन्ति कार्तिकमासम् आरभ्य अथवा मार्गशीर्षमासम् आरभ्य आकाशस्य अनवर्तम् अस्माभिः तत्र दर्शनं कार्यम्. तत्र पर्जन्यस्य पर्जन्यगर्भः तदा आरभ्य उत्पद्यते इति. मार्गशीर्षमासम् आरभ्य तत्र अस्माभिः गर्भस्य पर्जन्यगर्भस्य लक्षणानि अवलोकनीयानि. तदा तत्र गगने यानि परिवर्तनानि भवन्ति, कदाचित् तत्र वर्णेषु व्यत्यासः, सूर्यस्य उदयकाले, अस्तमयकाले, अनन्तरं कदाचित् तत्र विशेषतया वातस्य सञ्चलनम् इत्यादि, बहवः इन्द्रधनुदर्शनम् इत्यादीनि अस्माभिः सम्यक् ज्ञात्वा परिशील्य सार्धषण्मासात् परं कीदृशी वृष्टिः जायते इति अस्माभिः वक्तुं शक्यते. मानवगर्भः यथा नवमासात्मकः भवति तथा पर्जन्यगर्भः सार्धषण्मासात्मकः भवति. इदानीं ये गर्भाः पर्जन्यगर्भाः उत्पद्यन्ते तैः तत्र पर्जन्यैः सार्धषण्मासात् परं वृष्टिः जायते. तदर्थं सूत्राणि तत्र बृहत्संहितायां संहिताग्रन्थेषु निर्दिष्टानि भवन्ति. अत्र किमपि अन्यत् नास्ति, केवलं तत्र निरीक्षणमेव, आकाशनिरीक्षणेनैव अस्माभिः तत्र वृष्टिः कीदृशी भवति इति वक्तुं शक्यते. एतेन वस्तुतस्तु तत्र देशस्य इदानीम् अस्माभिः प्रोजेक्षन् सर्वं तत्र क्रियते. तत्र किं बजेट् कथं, यतोहि वृष्टिः समीचीना अस्ति वा न वा, तर्हि एलोकेशन् कियन्वितं करणीयं. तत्र वृष्टिः समीचीना नास्ति चेत् तदर्थम् अस्माभिः पूर्वमेव ज्ञायते चेत् तदनुरोधेन अस्माभिः कार्यप्रवृत्ताः वयं भवामः. तदर्थं पञ्चाङ्गेषु आदावेव लिखन्ति स्म. तदर्थमेव तत्र वराहः लिख्यते, राज्ञः आस्थाने तत्र ज्योतिर्विदाः तद्विदश्चत्वारः नियोक्तव्याः, एकः ऐन्द्रीं पश्येत्, एकः अग्नेयं पश्येत्, एकः तत्र दक्षिणां पश्येत्. तेषाम् अन्यत् किमपि कार्यं नास्ति, सततम् आकाशवीक्षणमेव. सत्यं पूर्वं तु राज्ञां तथा पोषकत्वम् आसीत् ज्योतिर्विदां, तेषां तु कार्यम् आकाशवीक्षणमेव, अन्यत् कार्यं किमपि नास्ति. तादृशाः तत्र ज्योतिर्विदः नियुक्ताः आसन्, ते सततम् अन्वेषणं कृत्वा आकाशे जातानि तत्र परिवर्तनानि तत्र परीक्ष्य वृष्टिः कीदृशी भवति इति निर्णयं स्वीकुर्वन्ति, निश्चिन्वन्ति स्म. अनन्तरं पञ्चाङ्गेषु तदनुरोधेन लिखन्ति स्म. एवं पर्जन्यगर्भलक्षणम्, एतत् बृहत्संहिताग्रन्थं भवन्तः अवलोकयन्ति चेत् तत्र लक्षणानि युक्तानि सन्ति. एवं तत्र भूगर्भशास्त्रविषये अपि तत्र संहिताग्रन्थेषु विद्यते. भुवि उत्पन्नानि उत्पन्नाः सस्यविशेषाः ये सन्ति, तान् दृष्ट्वा अस्माभिः अन्तर्जलविचारः कर्तुं शक्यते. तत्र कुत्र कियन्मिते गाधे कियन्मितं तत्र जलं लभ्यते इत्यादिविचाराः अपि तत्र प्रायशः बृहत्संहितायां 200+ सूत्राणि तादृशानि तत्र दत्तानि सन्ति वराहमिहिराचार्येण. तत्रापि कति गाधे तत्र वल्मीकाः दृष्टाश्चेत्, वल्मीकाः दृष्टाश्चेत् एण्टिल् इति वदामः, तत्समीपे जलम् अवश्यं भवति इति ते लिखन्ति. अनन्तरं वृक्षाणां परितः, अनन्तरं कदाचित् प्रलम्बशाखाः, वृक्षस्य शाखाः किञ्चित् भूमौ प्रति तत्र अभिमुखाः भवन्ति, तत्र जलम् अधः अवश्यं भवति इत्यादि बहवः भिन्नभिन्नप्रदेशेषु भिन्नभिन्नक्रमाः अस्माभिः तत्र स्वीकरणीयः भवति तदनुरोधेन जलं कथं वक्तुं शक्यते इति अन्तर्जलविचारः दकार्गलप्रकरणम् इति तत्र संहिताभागे आगच्छति अन्यदपि अस्ति ग्रहाणां स्थित्यनुरोधेनापि जलं वक्तुं शक्यते अष्टलग्नात् हुबिके नाथस्सलिनं वृष्टिपतनं तु दशमेन नद्यागमनं तु सप्तमेनैव हुबिके नाथस्सलिनं लग्नात् चतुर्थभावेन तत्र अधस्सलिनम् अन्तर्जलं वाच्यं दशमेन लग्नात् दशमस्थानेन तत्र वृष्टिपतनं दशमेन वृष्टिपतनं नद्यागमनं तु सप्तमेनैव लग्नात् सप्तमस्थानेन तत्र नद्यां प्रवाहः आगच्छति वा न वा इत्यपि विचारः कर्तुं शक्यते तदपि ज्ञातव्यं यतोहि उत्तरभारते कोसी इत्यादि नद्यः सन्ति बिहार इत्यादिषु कदा प्रवाहः भवति इति वक्तुं न शक्यते कदा तत्र पृच्छकाः गत्वा पृच्छन्ति स्म एवं प्रवाहः भवति वा न वा नद्यां इति तदा जागरूकाः वयं भवामः किल एवम् एतादृशग्रहाणां स्थितदनु तत्र वर्षप्रश्नः इति भवति वृष्टिः जायते वा न वा इति तत्र प्रश्नशास्त्रे विद्यते तत् अवलम्ब्यापि वृष्टिः वक्तुं शक्यते एवम् ओब्सर्वेशन् द्वारा अपि वृष्टिः वक्तुं शक्यते तत्र जलग्रहाः यथा मया उक्तं चन्द्रस्य स्थितिः शुक्रस्य स्थितिः एतान् दृष्ट्वापि तत्र जलविचारः अस्माभिः कर्तुं शक्यते उभाभ्यां निर्णये जलविचारः क्रियते एवं तत्र पर्जन्यगर्भलक्षणम् अनन्तरम् अन्यः विचारः विद्यते तत्र गन्धयुक्त्यधिकारः इति अस्ति गन्धयुक्त्यधिकारः इत्युक्ते तत्र अस्माभिः हर्बल्स् तत्र सस्यानां संयोजनेन तत्र गन्धस्य सेण्ट् इति उच्यते पर्फ्यूम्स् तत् कथं निर्माणं कर्तुं शक्यते हर्बल् पर्फ्यूम् तत्र बृहत्संहितायाम् एतादृशविचारः अपि अस्ति उदाहरणार्थं तत्र जलं निर्णीतं तर्हि तत्र पुनः गच्छामि तर्हि शिलाः तत्र लभ्यन्ते चेत् अधः तत्र एतस्मिन् गाढे जलं शिलाः सन्ति इत्यपि अस्माभिः ज्ञातुं शक्यते शिलाः सन्ति चेत् तासां स्फोटप्रकारोपि कुतः विद्यते डैनमैट् इत्यादि यथा अस्ति तत्र शिलास्फोटनं कथं कर्तुं शक्यते तत्र तस्मिन्नेव दकार्गलाध्याये तदपि उक्तं विद्यते अनन्तरं जलं यथा तत्र जलम् आकाशात् यत् जलं लभ्यते तत् समीचीनं भवति तत्र वर्णः नास्ति किन्तु यदा भूमिं प्राप्नोति भूमेः गन्धवर्णवशात् रुचिवशात् जले अपि तत्र व्यत्यासः जायते कस्यां भूमौ कीदृशं जलं लभ्यते इत्यपि विचाराः सन्ति अनन्तरं जलं यदि समीचीनं नास्ति तर्हि जलस्य परिशुद्ध्यर्थं किं किं कार्यं सस्यविशेषाः उक्ताः सन्ति तेषां मिश्रणं तत्र संस्थापनीयम् एवं तत्र वृक्षायुर्वेदप्रकरणं वृक्षाणाम् आरोपणं कदा कार्यं तयोर्मध्ये अन्तरं कियन्मितं स्यात् विंशतिहस्ताः उत्तमं विंशतिहस्ताः मध्यमं तु षोडशहस्ताः इति परस्परं वृक्षयोर्मध्ये अन्तरं कियन्मितं स्यात् कदा आरोपणीयं वृक्षाः आरोपणीयाः तत्र इदानीमपि तत्र किं वृक्षाणाम् आरोपणात् पूर्वं भुवि कीदृशः संस्कारः कार्यः तिलान् वपेत् इति वदन्ति आदौ तत्र तिलान् तिलाः तत्र प्रसार्य यदा तत्र अङ्कुराः आगच्छन्ति तान् अङ्कुरान् तत्रैव संस्थाप्य मुद्रियात् अनन्तरं वृक्षाणाम् आरोपणं कुर्यात् इति तत्र वदन्ति वृक्षायुर्वेदे वदन्ति अनन्तरं वृक्षाणां रोगाः भवन्ति चेत् तेषां निवारणार्थम् औषधानि कानि इत्यादि विचारोपि तत्र उच्यते इदानीं परिसरस्य रक्षणविषये बहु उच्यते किन्तु प्राचीनग्रन्थेषु परिसरस्य संरक्षणं वृक्षाणां कर्तनं न कदापि कार्यं वृक्षाणां कर्तनं कदाचित् करणीयं चेत् तदा कथं करणीयं तत्र पूर्वस्मिन् दिने तत्र गत्वा तत्र किं घृतम् अनन्तरं मधु इत्यादिना संलेपः करणीयः इत्यादि बहु अस्ति तत्र विचारः अस्ति अनन्तरं कर्तनं कार्यं तत्र प्रार्थना करणीया अत्र वृक्षे ये पक्षिणः ये जीवाः सन्ति तेषाम् अन्यत्र आश्रयः भवतु इत्युक्ते एकः वृक्षयः कर्तनीयश्चेदपि बहु चिन्तनं करणीयम् एतादृशविचारापि तत्र सन्ति तत्र परिसरस्य संरक्षणस्य तत्र उद्देश्यं तत्र सम्यक् परिणितं विद्यते ज्योतिषशास्त्रे एवं तत्र किं शिलास्फोटनप्रकारः वृक्षायुर्वेदीयः अनन्तरं कदाचित् कृष्णः तत्र अस्माकं केशाः पलिताः भवन्ति चेत् तदर्थं तत्र इदानीं एतत् कुर्वन्ति किल तत्र कृष्णतया तत्र परिवर्तयितुं कथं तत्र गन्धः ते पदार्थाः लेपाः तादृशविचाराः सन्ति यतोहि मानवस्य दैनन्दिनजीवने ये उपकारकाः सन्ति ते सर्वेपि विचाराः अत्र उक्ताः सन्ति अनन्तरं स्त्रीपुरुषलक्षणानि तत्र स्त्रीपुरुषलक्षणानि तत्र तेषाम् अङ्गविभागः एतादृश अङ्गानि सन्ति चेत् तस्याः गुणः एवं भवेत् स्त्रियः पुरुषस्य एवं भवितुम् अर्हति यतो हि एतदपि फेस् रीडिङ्ग् इत्यादिकं पाश्चात्यज्योतिषशास्त्रेपि अस्माकम् अपि अस्ति तत्र ग्रहाः महाभूतकृतां छायाम् अभिव्यञ्जयन्ति इति शास्त्रे उच्यते तत्तद्ग्रहाः ते ग्रहाः स्वीयदशायां स्वस्व तत्र छायाम् अभिव्यञ्जयन्ति तस्य मानवस्य शरीरे तत्र मानवं दृष्ट्वा कस्य ग्रहस्य दशा अस्य प्रचलति इति अस्माभिर्वक्तुं शक्यते एवमपि कर्तुं शक्यते तत्र दृष्ट्वा तादृशाः ज्योतिर्विदः अपि पूर्वम् आसन् इदानीमपि सन्ति एवम् एतादृशविचाराः अपि सन्ति अनन्तरम् अश्वेङ्गितं गवेङ्गितं तत्र हस्तिनां विषये गवां विषये तेषां चर्यया शुभाशुभफलानि अस्माभिर्वक्तुं शक्यन्ते एतादृश बहवः विचाराः अस्मिन् तत्र संहिताविभागे उक्तास्सन्ति एतादृशरीत्या ज्योतिषशास्त्रम् इत्युक्ते एतस्य वस्तुतस्तु विराट् रूपं विद्यते सामान्यतः इदानीं जनाः ज्योतिषशास्त्रम् इत्युक्ते मार्गस्य आपणेषु उपविश्य ये तत्र राशिफलानि वदन्ति तदेव ज्योतिषशास्त्रम् इति जनाः निर्णयन्ति किन्तु अस्य ज्योतिषशास्त्रस्य वैज्ञानिकं तत्र किं वैज्ञानिकी पृष्ठभूमिः विद्यते तत्र खगोलशास्त्रस्य प्रमाणानि अनुसृत्यैव एतत् ज्योतिषशास्त्रं तत्र विद्यते एतत् किमपि कपोलकल्पितं नास्ति तत्र व्यवस्थितया तत्र शास्त्रम् इत्युक्ते किं सिस्टमेटिक् एनालिसिस् तत्र कृत्वैव शास्त्रम् एतत् ज्योतिषशास्त्रं निर्मितम् अस्ति कस्यापि तत्र कपोलकल्पितं नास्ति अस्य तत्र ज्योतिषशास्त्रस्य तत्र मूलाधारः अत्यन्तं सुदृढः अस्ति किन्तु अजानन्तः केचित् किमपि वदन्ति इति दृष्ट्वा तत्र ज्योतिषशास्त्रविषये तत्र अविश्वासं तत्र प्रकटे तत्र कारणं वयमेव यतोहि ज्योतिषशास्त्रगतविषयान् वयं जनानां तत्र पुरतः न नीतवन्तः तत् ज्योतिर्विदामेव दोषः जनानां दोषः नास्ति ज्योतिषशास्त्रस्य यावान् प्रचारः अस्माभिः व्यवस्थितया करणीयः आसीत् सः प्रचारः अस्माभिः कृतः न कृतः यतोहि पूर्वं प्रायशः पाश्चिमात्यानां तत्र आक्रमणात् पूर्वं ज्योतिषशास्त्रम् इत्युक्ते विज्ञानत्वेन तत्र भारतशास्त्रे भारते देशे प्रचलितमासीत् किन्तु अनन्तरकाले पाश्चिमात्यानां प्रभावेण प्रायशः अत्र विद्यमानानि सर्वाण्यपि शास्त्राणि प्राधान्यं गतम् इति कारणात् अध्ययनम् लुप्तानि जातं गणितेपि एवमेव जातं सप्तदशशतमानपर्यन्तं नूतनग्रन्थानाम् आविष्कारः जातः किन्तु इदानीं परिवर्तिकाले नूतनग्रन्थानाम् आविष्कारः न जातः वस्तुतस्तु अस्माभिः काले काले ग्रहाणां वेधं कृत्वा गणितागतग्रथः अनन्तरं वेदसिद्धग्रहः अनयोर्मध्ये कदाचित् व्यत्यासः जातश्चेत् अपेक्षितः संस्कारः ग्रहाणां दातव्यः अनन्तरं सः दृक्सिद्धः करणीयः प्राचीनकाले तत्र ज्योतिर्विदः गणितद्वारापि ग्रहस्फुटं कुर्वन्ति स्म अनन्तरं यन्त्रादिना वेदेनापि ग्रहाणां तत्र ज्ञानं कुर्वन्ति स्म उभयोः व्यत्यासः जायते चेत् तदा कुत्रचित् तत्र अस्माभिः यतो हि ग्रहाः एकेनैव तत्र वेगेन न गच्छन्ति तत्र विभिन्नैः कारणैः भिन्नस्थानेषु यदा प्राप्नुवन्ति तदा कालभेदेन स्थितिभेदः जायते तत्स्थितिभेदः अस्माभिः गणितसंस्कारेण निवारणीयः भवति प्राचीनकाले तत्तत्काले परिष्कारः कृतः आसीत् तदर्थमेव नूतनग्रन्थाः उत्पन्नाः आसन् किन्तु अनन्तरकाले दुरदृष्टकारणात् अस्माकं तत्र सिद्धान्तग्रन्थानां तत्र ह्रासः जातः तत् अपेक्षितः परिष्कारः अस्माभिः न दत्तः इति कारणात् इदानीम् अस्माभिः प्राचीनग्रन्थानुरोधेन तत्र ग्रहस्फुटीकरणं क्रियते चेत् कुत्रचित् क्वचित् व्यत्यासः जायते किन्तु एषः व्यत्यासः परिमार्ष्टुं शक्यः किन्तु तदर्थम् अस्माभिः परिश्रमः करणीयः भवति भगवदनुग्रहेण प्रायशः सर्वेषां सहकारेण एतादृशलोपाः दूरीकृताः भवेयुः इति विश्वस्य मदीयम् उपन्यासं समापयामि धन्यवादः।